दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्त प्रतिरन्त आयुः सहस्राक्षेण शतशारदेन शतायुषा हविषाः आर्षमेनं शतं यथेमं शरधो न यातीन्द्रो विश्वस्य दुरितस्य पारम्।